सूर्यकवचः ओम अस्य श्री आदित्य कवच स्तोत्र महामंत्रस्य अगस्त्यो भगवान ऋषिः अनुष्टुप् छन्दः आदित्यो देवता श्रीं बीजं नीं शक्तिः सूं कीलकं मम आदित्य प्रसाद सिद्ध्यर्थे जपे विनियोगः ध्यानम् जपा कुसुम संकाशं द्विभुजं पद्महस्तकं सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम् माणिक्यरत्नखचित सर्वाभरणभूषितं सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् आदित्योलोचने पातु श्रुती पातु दिवाकरः घ्राणं पातु सदा भानुः मुखं पातु सदा रविः जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः स्कन्दौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः करावव्यकरः पातु हृदयं पातु नभोमणिः द्वादशात्मा कटिं पातु सविता पातु सग्धिनी ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः जह्ने मे पातु मार्ताण्डो गुल्भौ पातु त्रिशाम्पतिः पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः आदित्यकवचं पुण्यम् अभेद्यं वज्रसन्निभम् सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ज्ञानम् अनेकरत्नसंयुक्तम् स्वर्णमाणिक्यभूषणम् कल्पवृक्षसमाकीर्णम् कदम्बकुसुमप्रियम् अशेषरोगशान्त्यर्थम् ध्यायेदादित्यमण्डलम् सिन्दूरवर्णाय सुमण्डलाय सुवर्णरत्नाभरणाय तुभ्यम् पद्मादिनेत्रे च सुपङ्कजाय ब्रह्मेन्द्रनारायण शङ्कराय संवृत्तचूर्णम् ससुवर्णदोऽयम् सकुङ्कुमाभम् सकुशम् सपुष्पम् प्रदत्तमादाय च हेमपात्रे प्रशस्तनादम् भगवन् प्रसीद प्रसीद भगवन् प्रसीद प्रसीद भगवन् प्रसीद प्रसीद इति श्रीपद्मपुराणे आदित्यकवचम् समाप्तम्।